इत्था हि सोम इन्मदे ब्रह्मा चकार वर्धनम् शमिष्ठ वज्रिन्नो जसा पृथिव्या निश्यशा अहिमर्चन्दन स्वराज्यम् सत्त्वा मदद्वृषा मदः सोमः शेनाभृतः सुतः येना वृत्रन्निरद्भ्यो जघन्थ वज्रिन्नो जसार्चन्दन स्वराज्यम् प्रेह्यभिः धृष्णो हि न ते वज्रो निजम् सते इन्द्रनृम्णम् हि तेशवो हनो वृत्रञ्जया अपोर्चन्दनु स्वराज्यम् निरिन्द्रभौम्या अधिवृत्रञ्जघन्थ निर्दिवः सृजा मरुत्वतेरवजीवधन्या इमा अपोर्चन्दनु स्वराज्यम् इन्द्र वृत्रस्य दोधतः सानुम् वज्रेण हीडितः अभिक्रम्यावजिघ्नतेपः सर्माजचोदयन्नर्चन्दनु स्वराज्यम् अधिसानो निजिघ्नते वज्रेण शतपर्वणा मन्दान इन्द्रो अन्धसः सखिभ्यो गातुमिच्छत्यर्चन्दनु स्वराज्यम् इन्द्र तुभ्यमिदद्रिवो दत्तम् वज्रिन्वीर्यम् यद्धत्यम् माजिनम् मृगन्धभुत्वम् माजजावधीरर्चन्दनु स्वराज्यम् विते वज्रासो अस्थिरन्नवतिन्नाव्यानो महत्त इन्द्रवीर्यम् बाह्वोऽस्ते बलम् हितमर्चन्दनु स्वराज्यम् सहस्रम् साकमर्चदपरिष्टोभत विंशतिः शतैनमन्मनो न पुरिन्द्राज ब्रह्मार्यतमर्चन्दनु स्वराज्यम् इन्द्रो वृत्रस्य दविषीम् निरहन् सहसा सहाः महत्तदस्य पुंस्यम् वृत्रञ्जघन्वाङ्कसृजदर्चन्दनु स्वराज्यम् इमे चित्तमपञ्जवेपेतेभिजसा महि यदिन्द्रवज्रिन्नो जसा वृत्रम् मरुत्वाङ्कवधीरर्चन्दनु स्वराज्यम् न वेपसा न तञ्जतेन्द्रम् वृत्रो बिभेभजत अभ्येनम् वज्र आजसः सहस्रभृष्टिराजतार्चन्दनु स्वराज्यम् यद्व्रत्रम् तव चाशनिम् वज्रेण समयोधयः अहिमिन्द्रजिघाम् सतो दिविते मद्वधेशवोर्चन्दनु स्वराज्यम् अभिष्टने ते अद्रिवो यत्स्था जगच्चरे च ते त्वष्टा चित्तव मन्यव इन्द्रवे विद्यते भिजार्चन्दनु स्वराज्यम् न हि नु यादधीमसीन्द्रम् को वीर्या परः तस्मिन्नृम्णमुदक्रतुम् देवा ओजांसि सन्दधुरर्चन्दनु स्वराज्यम् यामधर्वामनुष्पिता दध्यम् द्विजमत्नता तस्मिन् ब्रह्माणि पूर्वथेन्द्र उक्था समग्मदार्चन्दनु स्वराज्यम् इति पञ्चमोऽध्यायः।